एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्रिणा केपी शर्मा ओलीना वैकल्पिक शिक्षण प्रविधि प्रारब्ध वर्तते। प्रधानमन्त्री ओली गतदिने राष्ट्रस्य नाम्नि सम्बोधयन् वैकल्पिक शिक्षणे सहभागिनो भवितुम् विद्यार्थिनः अन्वरुणत्। कोरोना विषाणोः संक्रमणस्य महामार्याः कारणेन अवरुद्धायै शिक्षण प्रणाल्यै निरन्तरताम् प्रदातुम् सर्वकारेण रेडियो टेलिभिजन प्रसारणयोः वैद्युत साञ्जालिक अनलाइन प्रणाल्याश्च प्रविधिना पठन पाठनयोः व्यवस्था विहिता स्थिति चर्चयन् प्रधानमन्त्री ओली वैकल्पिक प्रणाल्याः शिक्षण सहजीकरणाय निर्देशिकायाः प्रकाशन क्रमे स्थानीय स्तरेषु विद्यालयानां स्रोत साधनेषु विद्यमाने सामर्थ्ये च ध्यानं दत्तमस्तीति प्रावोचत्। प्रधानमन्त्री ओली चिराय विद्यालयानां पिधानेन समग्र शैक्षिक सत्रं प्रभावितं भवतीति हेतोः परिपिधानस्य अवधौ एव प्रविधेर्माध्यमेन पठन पाठनयोः प्रारभणेन सहैव भाविनि सन्ततिः प्रविधौ अभ्यस्ता भविष्यतीति विश्वास व्यक्तवान्। प्रधानमन्त्री ओली अभासता इदानीं कस्यापि आन्दोलनस्य आवश्यकता नास्ति, सुशासन स्वच्छतयोः संस्थापन पुरस्सरं समृद्धं राष्ट्रं निर्मास्यते इत्यत्र विश्वस्ताः भवितुं सर्वान् अनुरुन्धानः प्रधानमन्त्री ओली आगामिनी जनशक्ति सक्षमा स्वस्था शिक्षिता योग्या च भविष्यतीति च विश्वासं व्यक्तवान्। परिपिधानं निरसनस्य अपेक्षया ईषत् सरलीकृतम् अस्तीति ज्ञापयन् प्रधानमन्त्री ओली बालबालिकानां शिक्षणस्थलमेव समुदाय कोरोना विषाणु संक्रमण विस्तारक केन्द्रम न भवतु इत्यत्र शिक्षकैः विद्यार्थिभिः अभिभावकैश्च सचेष्टैर्भाव्यम् इत्यत्र बलम् अदात्। गतदिने अतिरिक्तेषु 51,774 जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले समग्रतः कोरोना संक्रान्तानां जनानां संख्या 6,11,702 च प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः गतदिने विभिन्नासु प्रयोगशालासु विहिते परीक्षणे अतिरिक्तेषु 16,174 पुरूषेषु 35 महिलासु च कोरोना संक्रमणं पुष्टिभूतमस्तीति अज्ञापयत्। नेपाले अद्यावधि 73 जनपदानां 5,000 44,777 च पुरूषेषु 171,774 महिलासु च संक्रमणं पुष्टिभूतमस्ति। मन्त्रालयस्य अनुसारेण गतदिने 60 पुरूषाः 7 महिलाश्च संक्रमणात् मुक्ता वर्तन्ते। एतेन सहैव नेपाले अद्यावधि संक्रमणात् प्राप्त स्वास्थ्य लाभानां जनानां संख्या 141,000 प्राप्ता अस्ति। राष्ट्रिय सभाया ह्यस्तनोपवेशे एतद् विक्रमाब्दीयस्य विनियोजन विधेयकस्य विभिन्नानां शीर्षकाणां मध्ये भौतिक पूर्वाधार यातायात अर्थसञ्चार सूचना प्रविधियादीनां एकादशानां मन्त्रालयानां विनियोजन शीर्षकाणि आश्रित्य विमर्शनम् अचलत्। उपवेशे प्रतिनिधि सभातः ससन्देशं प्राप्तम् आर्थिक विधेयकं राष्ट्र ऋणोत्थापन विधेयकं ऋण न्यास विधेयकं कतिचित् अध्यादेशान् निरस्य व्यवस्थापयितुं निर्मितम् एतद् विक्रमाब्दीयम् अध्यादेश प्रतिस्थापन विधेयकञ्च प्रस्तुतानि वर्तन्ते। सर्वकारेण जातीय विभेदस्य घटनानां द्विरावर्तनं रोद्धुं रुकुं पश्चिमस्य घटनायाः दोषिणो दण्डयितुं च संवेदनशीलतास्तीति ज्ञापितं वर्तते। गृहमन्त्रालयस्य सहप्रवक्त्रा उमाकान्त अधिकारिणा गतदिने विज्ञप्तिं प्रकाश्य पीडकेभ्यो दण्डदायिनी पीडितेभ्यो न्यायप्रदायिनी च वैधानिक प्रक्रिया प्रारब्धास्तीति ज्ञापितं वर्तते। असौ तस्याः घटनायाः सम्बन्धे विस्तृतम् अनुसन्धानस्य अनन्तरं न्यायिक निरूपण अभियोजनं च सम्पन्ने स्तः इत्यभासत। संसदः प्रमुख प्रतिपक्षणो नेपाली कांग्रेस दलस्य संसदीय दलेन वैदेशिक वृत्ति व्यवसायीनाम् अनुमतिपत्रं नवीकर्तुम् अनुरुद्धं वर्तते। कांग्रेस संसदीय दलेन गतदिने विज्ञप्तिं प्रकाश्य विश्वव्यापी रूपेण व्यापृतायाः कोविड 19 महामार्याः कारणेन वैदेशिक वृत्ति व्यवसायीनाम् अनुमतिपत्रस्य अनवीकरणकारिणी अवस्था सृष्टेति वितर्क्य सर्वकारस्य ध्यानम् आकर्षितं वर्तते। प्रतिनिधि सभायाः राज्यव्यवस्था सुशासन समित्या संघ प्रदेश स्थानीय स्तराणाम् अन्तर सम्बन्धस्य व्यवस्थापनस्य सम्बन्धे व्यवस्थापयितुं निर्मितं विधेयकम् आवश्यकं परिमार्ज्य संशोधनं पारितीकृतं वर्तते। संघ प्रदेश स्थानीय स्तराणां मध्ये कीदृशः सम्बन्धः भविष्यति, कार्याणाम् आवंटनं कथं विधेयम्, विवादस्य निरूपण प्रक्रियायाः सम्बोधनं कथं विधास्यते चेति विषयेषु विधेयकस्य सम्बन्धे राष्ट्रियसभातः प्राप्तं परामर्शन सहितं प्रतिवेदनम् आवश्यकं संशोधनम् पार्टीकृतमस्तीति समितेः सदस्य लालबाबू पण्डितः अबोधयत्। राष्ट्रिय मानवाधिकार आयोगेन कैलाली जनपदस्य लंकीचुहा नगरपालिकायाः प्रथमवडा क्षेत्रवर्तिनो हुतात्म स्मारक माध्यमिक विद्यालयस्य सुरक्षणावासे स्थितायाः महिलायाः सामूहिक बलात्कारस्य दोषिणो दण्डयितुं पीडितायै क्षतिपूर्तिं दापयितुं च अनुरुद्धं वर्तते। आयोगस्य प्रवक्त्रा वेदप्रसाद भट्टराई इत्यनेन ह्यः प्रकाशितायां विज्ञप्तौ एवं अनुरुद्धमस्ति। एवमेव नेपाली कांग्रेस दलेन कैलाली जनपदस्य सुरक्षणावासे निवसन्त्या महिलायां विहितायां बलात्कार घटनायां संलग्नान् जनान् दण्डयितुम् अभियाचितमस्ति। दलस्य प्रवक्त्रा विश्वप्रकाश शर्मणा प्रकाशितायां विज्ञप्तौ एवं अभियाचितमस्ति। सत्तभिः एव प्रदेश सर्वकारैः प्रदेशसभानाम् उपवेशेषु गतदिने आगामिनः आर्थिक वर्षस्य कृते आयव्ययक विवरणानि प्रस्तुतानि वर्तन्ते। नेपाली कांग्रेस दलेन सहमहामन्त्रिणः डाक्टर प्रकाश शरण महत इत्यस्य संयोजकत्वे कोविड 19 अनुगमन समिति संगठिता वर्तते। सानेपावर्तिनी नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालये गतदिने आयोजिते पत्रकार सम्मेलने संयोजकः डाक्टर महत समित्या कोरोना महामार्या श्रेष्ठस्य प्रभावस्य समस्यायाः समाधानस्य च विषयेष् आराष्टम् अनुसन्धाय प्रतिवेदनं निर्मास्यते इत्यज्ञापयत्। एयर अरेबिया नामकेन अन्तर्राष्ट्रिय वायुसेवा संस्थानेन निर्धारित भाटकात् अधिक भाटकम् गृहीत्वा नेपालम् आगन्तुम् अपेक्षितम् सद् संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन उड्डयनम् निषिद्धम् वर्तते। अरेबिया संस्थानम् दुबई काष्ठमण्डपो डयनाय 500 डलर मुद्रा गृहीत्वा उड्डयन सम्बद्धम् प्रस्तावम् अग्रे सारयित्वा मन्त्रालये आगतम्। तदनु पर्यटन मन्त्री योगेश भट्टराई नेपाल वायुसेवा निगमस्य अपेक्षया भाटकस्य महर्गता स्थिति निगद्य प्रस्तावम् अस्वीकृतवान्। पशुपति मन्दिरस्य परिसरे स्वच्छताया सौविध्य निर्माणाय नेपालस्थितस्य भारतीय दूतावासस्य संघीय विषय सामान्य प्रशासन मन्त्रालयस्य काष्ठमण्डप महानगरपालिकायाश्च मध्ये गतदिने संविदा पत्रे हस्ताक्षरितं वर्तते। पशुपतिनाथ मन्दिरे आगच्छतां तीर्थयात्रिणां पर्यटकानां च कृते स्वच्छताया सौविध्य निर्माणाय भारतेन कोटित्रयस्य 270 लक्षाणां 30,000 च रूप्यकाणाम् आर्थिक सहयोग प्रदत्तोस्तीति भारतीय राजदूतावासेन ज्ञापितं वर्तते। वीरगंज स्थिते नारायण चिकित्सालये गतदिवसात् अन्तरंग सेवा प्रारब्धा वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य आपत्कालिक विपद व्यवस्थापन विभागस्य स्वास्थ्यापत्कालिक कार्य संचालन केन्द्रेण गत चैत्र मासस्य 30 दिवसे नारायण चिकित्सालयं कोविड चिकित्सालयम् उद्घोष्य अन्य सेवा पिधापयितुं निर्दिष्टम् आसीत् इति समाचाराः।